इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका वन्दना कश्यपः। मुख्य वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य नवदेहल्यां भारत मण्डपम् इत्यत्र अष्टलक्ष्मी लक्ष्मीं महोत्सवस्य उद्घाटनं कृतम्। विपक्षस्य कोलाहलम् आलक्ष्य संसदः उभयोः सदनयोः कार्याचरणम् अद्य स्थगितम् अभवत्। महापरिनिर्वाण दिवसावसरे अद्य भारतीय संविधानस्य मुख्य निर्मातुः डॉक्टर बी आर अम्बेडकर महोदयाय देशेन श्रद्धांजलिः समर्पिता। राष्ट्रपति पदासीना द्रौपदी मुर्मुः इत्येषा प्रोक्तवती यत् शिक्षैव मनुष्यस्य सर्वांगीण विकासस्य एकमात्रं मार्गः वर्तते। अपि च पुरुष क्रिकेट 19 वयोवर्गीयः एशिया चषक स्पर्धायाम् अद्य भारतेन उपान्त्य चक्रे श्रीलंका दलं 7-0 पराजितम्। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य नवदिल्ल्यां भारतमण्डपम् इत्यत्र अष्टलक्ष्मीमहोत्सवस्य उद्घाटनं कृतम्। त्रिदिवसीयः उत्सवः पूर्वोत्तरभारतस्य विशालसांस्कृतिकचित्रं प्रकाशयति। पारम्परिककलाः शिल्पकलाः सांस्कृतिकप्रथाः च संयोजयति। महोत्सवस्य अस्य प्रदेशस्य जीवन्त वस्त्र उद्यमस्य शिल्पकलायाः पर्यटन अवसराणां पूर्वोत्तरस्य अष्टसु राज्यानाम् अद्वितीय उत्पादानां च प्रकाशनार्थम् असाधारण मञ्चरूपेण कार्यं करिष्यति। अस्य प्रदेशस्य 20-30 कृषकाणां शिल्पिनां च उत्पादानां कलानां च प्रदर्शनं कुर्वत्। ग्रामीण आपणम् एव बृहत्तमम् आकर्षणं भविष्यति। अस्मिन् कार्यक्रमे पूर्वोत्तरभारतस्य प्रसिद्धानां मुगा एण्ड एरी सिल्क इत्येतयोः कृते समर्पितानि मण्डपानि शिल्पकलानां प्रत्यक्षप्रदर्शनानि क्षेत्रस्य भौगोलिकसूचक उत्पादानां विषये च विशेषम् अवधानं च भविष्यति। महोत्सवः अस्य जीवन्त प्रगति प्रदर्शयितुं महत्वपूर्णक्षणरूपेण कार्यं करिष्यति। पूर्वोत्तरभारतस्य सांस्कृतिकसमृद्धेः उत्सवम् आचरति तथा च तस्य निरन्तरवृद्धेः विकासस्य च समर्थनाय नूतनाः निवेशान् आमन्त्रयिष्यति। अस्मिन् उत्सवे शिल्पकलाप्रदर्शनानि ग्रामीणहाटस्य राज्यविशिष्ट मण्डपानि पूर्वोत्तरक्षेत्रस्य विकासाय महत्वपूर्णप्रमुखक्षेत्राणां विषये तान्त्रिकसत्राणि च भवन्ति। संसदः उभयोः सदनयोः कार्याचरणम् अद्य स्थगितम् अभवत्। विभिन्नप्रकरणेषु सत्तापक्षस्य कोलाहलानन्तरं राज्यसभायाः कार्याचरणं स्थगितम्। अपरत्र भाजपासांसदेन निशिकान्तदुबे इत्यमुना कांग्रेस नेतृन् विरुध्य आक्षेपित आरोपान् आलक्ष्य विपक्षिसदस्यानां विरोधकारणात् लोकसभायाः अपि कार्याचरणं स्थगितम् अभवत्। मध्याह्नभोजनानन्तरं यदा उच्चसदनस्य कार्याचरणं समारब्धं तथा सत्तापक्षीयसदस्यैः अभिषेक मनु सिंघवी इत्यस्य आसनात् धनराशि प्रापणसन्दर्भे कोलाहलं कृतम्। निरन्तरं कोलाहलम् अवलोक्य सदनस्य कार्याचरणं स्थगितम्। इतः पूर्वम् अद्य प्रातः तदा सदनस्य कार्यजातं समारब्धं तदा जगदीप धनखडेन विज्ञापितं यत् कार्याचरणस्य स्थगनान्तरम् अन्वेषणावधौ राज्यसभा कक्षात् धनराशे समुच्चय सम्प्राप्तः। तदो रीतं यत् श्री सिंघवी इत्यस्य आसनात् सुरक्षाकर्मिभिः धनराशि स्वायत्तीकृता। अस्मिन् सन्दर्भे अन्वेषणं जायमानम् अस्ति। श्री खड्गे इत्यमुना प्रोक्तं यत् अन्वेषणानन्तरमेव अस्मिन् विषये किमपि वक्तुं शक्यते। अस्मिन् विषये केन्द्रीयमन्त्रिणा जेपी नड्डा इत्यमुना कथितं यत् एषा काचित् अभूतपूर्वघटना वर्तते, अपि च एतस्याः कठोरनिन्दा भवेत्। महापरिनिर्वाणदिवसावसरे अद्य भारतीय संविधानस्य मुख्यनिर्मातुः डॉक्टर बी आर अम्बेडकर महोदयाय देशेन श्रद्धाञ्जलिः समर्पिता। अस्मिन् पवित्रदिने देशः बाबा साहेब अम्बेडकर महोदय तस्य शिक्षायै तथैव न्यायपूर्णं समावेशी समाजस्य निर्माणाय श्रद्धाञ्जलिं समर्पयति। राष्ट्रनिर्माणे डॉक्टर अम्बेडकर महोदयस्य योगदानं प्रकाशयितुम् अशेषे हि देशे बहवः कार्यक्रमाः समायोजिता। उपराष्ट्रपतिः जगदीप धनखड़ः, प्रधानमंत्री नरेन्द्र मोदी, लोकसभाध्यक्षः ओम बिरला इत्येते नवदिल्ल्यां संसद भवन परिसरे डॉक्टर अम्बेडकर महोदयं पुष्पांजलिं समर्पितवन्तः। पूर्व राष्ट्रपति रामनाथ कोविंदः, कांग्रेस अध्यक्ष मल्लिकार्जुन खड़गे, अन्ये च गणमान्याः प्रेरणास्थले तस्मै पुष्पांजलिम् अर्पितवन्तः। अस्य वर्षस्य समारंभे मुंबय्यां चैत्यभूमेः स्वीय यात्रायाः चित्रं प्रदर्शयन् प्रधानमन्त्रिणा नरेन्द्रमोदिना डॉक्टर अम्बेडकर महोदयः सामाजिक न्यायस्य प्रतीकत्वेन वन्दितः। श्रीमोदिना सबलं प्रोक्तं यत् डॉक्टर अम्बेडकर महोदयस्य सम्मानेन सह देशः स्वप्नान् पूरयितुं स्वीय प्रतिबद्धताम् अपि प्रकटीकरोति। संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। राष्ट्रपति पदासीना द्रौपदी मुर्मुः इत्येषा प्रोक्तवती यत् शिक्षैव मनुष्यस्य सर्वांगीण विकासस्य एकमात्रं मार्गः वर्तते। तया प्रोक्तं यत् आजीविका प्राप्तिरेव शिक्षायाः एकमात्रं उद्देश्यं न भवेत्। सा उक्तवती यत् छात्रेभ्यः शिक्षायाः माध्यमेन व्यापक ज्ञानं प्रदातव्यम्। राष्ट्रपतिना मयूरभंजस्य उपरबेड़ा सर्वकारीय उच्च प्राथमिक विद्यालयस्य छात्रान् संबोधनत्या एवं उदीरितम्। अस्मिन् जनपदे तया 6 दशकात् पूर्वं अध्ययनं कृतमासीत्। राष्ट्रपति द्रौपदी मुर्मुः देशस्य प्रथम नागरिकत्वेन पदम अवाप्यम् अद्य स्वीये पैतृकग्रामे उपरबेणायां प्रथमवारं समागता। उपरबेणा ग्रामः स्वसमुदायस्य अतीव प्रसिद्धायाः कन्यायाः हर्षोल्लासेन स्वागतम् अकरोत्। भारतीय जनता पार्टीति दलस्य विधायकेन कालिदास कोलंबकर इत्यमुना अद्य महाराष्ट्र विधानसभायाः प्रोटेम स्पीकर रूपेण शपथग्रहणं कृतम्। पुरुष क्रिकेट 19 वयोवर्गीय एशिया चषक स्पर्धायाम् अद्य भारतेन उपान्त्यचक्रे श्रीलंका दलं 7 स्तोभैः पराजितम्। भारतेन 470+100 धावनांकां लक्ष्यम् 21.4 क्षेपणचक्रेषु एव स्वायत्तीकृतं। वैभव सूर्यवंशी इत्यमुना 37 कन्दुकेषु 67 धावनांकां संप्राप्य सर्वाधिक धावनांकाः निर्मिताः। अपरत्र उपान्त्यचक्रे बांग्लादेशदलेन दुबई अन्ताराष्ट्रिय क्रीडांगणे पाकिस्तानदलं 7 स्तोभैः पराजितम्। पंजाब राज्यस्य कृषकानां कश्चन समूहः दिल्ली प्रत्यागच्छन् अस्ति। बहवः लंबितया इति वार्ताः।